अथैकषष्टितमः सर्गः। ततो जाम्बवतो वाक्यमगृह्णन् तव नौकसः अङ्गदप्रमुखा वीरा हनूमांश्च महाकपिः। प्रीतिमन्तस्ततः सर्वे वायुपुत्रपुरःसराः महेन्द्राग्रात् समुत्पत्य पुप्लुवुः प्लवगर्षभाः। मेरुमन्दरसङ्काशा मत्ता इव महागजाः। छादयन्त इवाकाशम् महाकाया महाबलाः। सभाज्यमानम् भूतैस्तमात्मवन्तम् महाबलम् हनूमन्तम् महावेगम् वहन्त इव दृष्टिभिः। राघवे चार्थनिर्वृत्तिम् कर्तुम् च परमम् यशः। समाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः। प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः। सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः। प्लवमानाः खमाप्लुत्य ततस्ते काननौकसः। नन्दनोपममासे दुर्वनम् द्रुमशतायुतम् यत्तन्मधुवनम् नाम सुग्रीवस्याभिरक्षितम्। अधृष्यम् सर्वभूतानाम् सर्वभूतमनोहरम् यद्रक्षति महावीरः सदा दधिमुखः कपिः। मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः। ते तद्वनमुपागम्य बभूवुः परमोत्कटाः। वानरा वानरेन्द्रस्य मनः कान्तम् महावनम्। ततस्ते वानरा हृष्टा दृष्ट्वा मधुवनम् महत् कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः। ततः कुमारस्तान् वृद्धान् जाम्बवत्प्रमुखान् कपीन् अनुमान्य ददौ तेषाम् निसर्गम् मधुभक्षणे। तेन सृष्टाः कुमारेण धीमता वालिसूनुना। हरयः समपद्यन्तद्रुमान् मधुकराकुलान् भक्षयन्तः सुगन्धीनि मूलानि च फलानि च। जग्मुः प्रहर्षन्ते सर्वे बभूवुश्च मदोत्कटाः। ततश्चानुमताः सर्वे सुसंहृष्टा वनौकसः। मुदिताश्च ततस्ते च प्रनृत्यन्ति ततस्ततः। गायन्ति केचित् प्रहसन्ति केचन नृत्यन्ति केचित् प्रणमन्ति केचित् पतन्ति केचित् प्रचरन्ति केचित् प्लवन्ति केचित् प्रलपन्ति केचित् परस्परम् केचिदुपाश्रयन्ति परस्परम् केचिदतिब्रुवन्ति द्रुमाद्रुमम् केचिदभिद्रवन्ति क्षितौ नगाग्राण्यपतन्ति केचित् महीतलात् केचिदुदीर्णवेगा महाद्रुमाग्राण्यभिसम्पतन्ति। गायन्तमन्यः प्रहसन्नुपैति हसन्तमन्यः प्ररुदन्नुपैति तुदन्तमन्यः प्रणदन्नुपैति समाकुलम् तत्कपि सैन्यमासीत्। न चात्र कश्चिन्न बभूव मत्तो न चात्र कश्चिन्न बभूव दृप्तः। ततो वनम् तत्परिभक्ष्यमाणम् द्रुमांश्च विध्वंसितपत्रपुष्पान् समीक्ष्य कोपाद्दधिवक्त्रनामा निवारयामास कपिः कपींस्तान्। सतैः प्रवृद्धैः परिभर्त्स्यमानो वनस्य गोप्ता हरिवृद्धवीरः। चकारभूयो मतिमुग्रतेजा वनस्य रक्षाम् प्रति वानरेभ्यः। उवाचकांश्चित् परुषाण्यभीतमसक्तमन्यांश्च तलैर्जघाना। समेत्य कैश्चित् कलहम् चकार तथैव साम्नोपजगामकांश्चित्। सतैर्मदादप्रतिवार्यवेगैर्बलाच्च तेन प्रतिवार्यमाणैः। प्रदर्शने त्यक्तभयैः समेत्य प्रकृष्यते चाप्यनवेक्ष्य दोषम्। नखैस्तु दन्तो दशनैर्दशन्तस्थलैश्च पादैश्च समापयन्तः। मदात् कपिन्ते कपयः समन्तान् महावनम् निर्विषयम् च चक्रुः। इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकषष्टितमः सर्गः।